ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्तिं द्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम् एकं नित्यं विमलमचलं सर्वधि साक्षिभूतं भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि। नमो गुरुभ्यो गुरुपादुकाभ्यो नमः परेभ्यः परपादुकाभ्यः आचार्यसिद्धेश्वरपादुकाभ्यो नमोऽस्तु लक्ष्मीपतिपादुकाभ्यः नमो ब्रह्मादिभ्यो ब्रह्मविद्यासम्प्रदायकर्तृभ्यो नमो वंशऋषिभ्यो नमो वासुदेवानन्देभ्यः आनन्दमानन्दकरं प्रसन्नं ज्ञान स्वरूपं निजबोधरूपं योगीन्द्रमिड्यं भवरोगवैद्यं श्रीसद्गुरुं नित्यमहं नमामि। शान्तं योगीन्द्रवर्यं द्विजकुलतिलकं श्रोत्रियं ब्रह्मनिष्ठं दत्तात्रेयं स्मरन्तं जनहितनिरतं सच्चिदानन्दमग्नं सिद्धं रेवा तटस्थं निजपररहितं नित्यमत्तावधूतं संतं नारेश्वरस्थं मथितकलिमलं पाण्डुरंगं नमामि।